भगिनी भगिन्यः इति बहुवचनम् आगच्छति. अत्र भगिनी भगिन्यौ भगिन्यौ न इ गच्छति, यौ आगच्छति. भगिनी भगिन्यौ भगिन्यः इति आगच्छति. समानं यदा आकारान्तशब्दः आगच्छति तत्र माला माले मालाः ये आगच्छति. माला माले मालाः. इकारान्तस्त्रीलिङ्गे नदी नद्यौ नद्यः, भगिनी भगिन्यौ भगिन्यः इति आगच्छति. इदानीं केवलं श्रवणं, जस्ट् लिसन्, वेन् वि गो टु विभक्ति बुक् विल् सी मोर्, तदा उदाहरणं सहितं पश्यामः. इदानीं केवलं शृण्वन्तु, जस्ट् गेट् इन्ट्रोड्यूस्ड् टु इट्. तत्र सो इदानीं पुल्लिङ्गशब्दे कथमागच्छति, बालकः बालकौ बालकाः. स्त्रीलिङ्गशब्दे आकारान्तस्त्रीलिङ्गशब्दे बालिका बालिके बालिकाः. ईकारान्तशब्दे नदी नद्यौ नद्यः, गौरी गौर्यौ गौर्यः, भगिनी भगिन्यौ भगिन्यः इति आगच्छति. नपुंसकलिङ्गमध्ये पुस्तकं पुस्तके पुस्तकानि इति आगच्छति. पुस्तकं पुस्तके पुस्तकानि इति नपुंसकलिङ्गपदेषु आगच्छति. इदानीम् एकवारं पश्यामः वा, अहं पृच्छामि भवन्तः एकवचनं द्विवचनं बहुवचनं वदतु. अस्तु वा कौशल्या भगिनी, वदतु. पुरुषः द्विवचनं.
पुरुषः पुरुषौ पुरुषाः.
अस्तु सम्यक्. पार्वती भगिनी वृद्धः वृद्धः वृद्धः. अहं वाक्यम् अहं वदामि पदं
वृद्धः वृद्धो वृद्धाः
वृद्धाः
वृद्धाः.
शोभा भगिनी युवकः
युवकः युवकौ युवकाः.
इदानीम् अहं पुल्लिङ्गमपि पृच्छामि, स्त्रीलिङ्गमपि पृच्छामि, नपुंसकलिङ्गमपि पृच्छामि. अस्तु वा अनु भगिनी
स्थालिका स्थालिके स्थालिकाः.
सम्यक्. विजया भगिनी गौरी
गौरी गौर्यौ गौर्यः.
आम् सम्यक्. रमा भगिनी छुरिका नैफ् छुरिका
छुरिका छुरिके छुरिकाः.
सम्यक्. छुरिका छुरिके छुरिकाः. लक्ष्मी भगिनी नदी
नदी नद्यौ नद्याः
नद्यः
नद्यः.
सुजया भगिनी शिक्षकः
शिक्षकः शिक्षकौ शिक्षकाः.
शिक्षकः शिक्षकौ
शिक्षकौ शिक्षकौ शिक्षकाः.
उमा भगिनी अन्म्यूट् करोमि, यदा वदति तदा अन्म्यूट् कृत्वा वदतु, पुनः म्यूट् कुर्वन्तु. उमा भगिनी इदानीमहं पृच्छामि, कदलीफलम्
कदलीफलं कदलीफलं कदलीफले कदलीफलानि.
इदानीं द्विवचनं स्त्रीलिङ्गेषु मेन्लि. पार्वती अनु
हलो हलो
कांट हियर हर
I think Sangeeta Bhagini is dropped off, isn't it?
She's there.
Lakshmi, how can we say Lakshmi? Lakshmiyo? Lakshmiyo?
अद्य सङ्गीता भगिनी स्वर मन्दम् अस्ति वा
न शृणु अहं
मन्दं
मन्दं शी हेज़् ड्राप्ड् आफ़् शी इज़् नाट् देर्
ऐ एम् पारुल् पारुल् वदामि
सङ्गीता भगिनी
पारुल् उक्तवती फोर् लक्ष्मी न
जानामि जानामि जानामि
लक्ष्मी सङ्गीता सङ्गीते सङ्गीता
लक्ष्म्या
गौरी
गौरी
गौर्यौ गौर्यः
शाटिका शाटिका शाटिके शाटिकाः
शाटिकाः शाटिकाः घटः
घटः घटौ घटौ घटाः
घटी
घटी घट्यौ घट्यः
वेरि गुड् गुड्
कौन बनेगा करोड़पति में आपका स्वागत है
वी शुड बैक और पैक
लेखनी
कौन बनेगा
लेखनी
लेखनी
लेखन्यौ लेखन्यौ
लेखन्यः न्यः अङ्कनी
अङ्कन्यौ अङ्कन्यः
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 अङ्कन्यः पत्रिका
पत्रिके पत्रिकाः ललाटं
वन् बै वन् विल् स्पीक् वन् बै वन्
ललाटं
ललाटे ललाटे लल्याटानि तानि तत्तेतानि तत्तेतानि
तत्तेतानि
संस्कृतभाषा
संस्कृतभाषे भाषे
भाषा भाषे भाषाः
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 विसर्गविकाः विसर्गविकाः
विसर्ग विल्कम्
केशवः
केशवः केशवौ केशवाः
भगिनी सरिता भगिनी हरि
ओम् हरि ओम् हरि ओम्
प्राक्टीस् कृतवन्तः कुत्र आगच्छत् भगिनी
करोतु कौशल भगिनी करोतु
भगिनी भवती कुत्र आगच्छत्
हरि ओम् श्रूयते वा हरि ओम् भगिनि हरि ओम्
श्रूयते श्रूयते
हलो आम् भगिनि
हलो
वेल् केन् हियर् मी
आम्
भगिनि
श्रूयते
सङ्गीता भगिनी श्रूयते वा तां न श्रूयते
हरि ओम्
हरि ओम् भगिनि
हरि ओम् हरि ओम् हरि ओम् भगिनि हरि ओम्
हरि ओम् भगिनि
मम नेट्वर्क् मध्ये किमपि अद्य समस्या अस्ति क्षम्यताम् अभ्यासं कुर्वन्तः वा
शृण्वन्तः
अस्तु कौशल्या भगिनी कारयति वा
We are able to hear you, but I don't think you are able to hear us. That's what I just want to convey.
No. I logged out and logged in again. Idani maham. Shunam. Astu. Trivachanam kim krutavantah va?
Krutavantah bhagini. Krutavantah.
Krutavantah. Lekhani, ankani.
Samyak. Idani samasya asti va? Kimapi? Sandeham asti va?
नास्ति भगिनि
हा सो अत्र विशेषतया एकं तु स्मरतु यदा पुल्लिङ्गशब्दः आगच्छति रामः रामौ रामः इति समानम् ईकारान्तमध्ये अपि औ इति आगच्छति लेखनी लेखन्यौ लेखन्यौ लेखनौ नास्ति लेखन्यौ लेखन्यौ अङ्कन्यौ नद्यौ इति आगच्छति यदा स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्गम् आगच्छति बालिका बालिके बालिकाः इति आगच्छति नपुंसकलिङ्गमपि पुस्तकं पुस्तके इति ये आगच्छति तत्र किञ्चित् ज्ञानम् आवश्यकं यदा करोति तत्र ईकारान्त आकारान्त स्त्रीलिङ्गमध्ये अन्यत् सुलभमेव अस्तु एतत् कर्तृपदस्य विषयं कर्तृपदस्य विषये इदानीं एकवचनं द्विवचनं बहुवचनं जानन्ति यदा क्रियापदम् आगच्छति क्रियापदं वर्ब् मध्ये कथम् इति पश्यति चेत् तत्र सामान्यवर्तमानकाल प्रसेण्टेन्स् मध्ये अधिकं समस्या नास्ति तत्र पुल्लिङ्गं वा स्त्रीलिङ्गं वा सर्वं विद्यालये प्रायः पठितवन्तः स्कूल् मध्ये इति मन्ये पठति पठतः पठन्ति इति पठितवन्तः वा तीतः इन्ति सीतः स्मरति वा पठितवन्तः वा
स्मरति
पठति पठतः पठन्ति इति आगच्छति खलु तत्र अद्य केवलं प्रथमपुरुषस्य मात्रं पश्यामः फस्ट् पर्सन् थर्ड् पर्सन् इन् इङ्ग्लिश् तत् मात्रं पश्यामः अनन्तरं मध्यमपुरुषं म्यूट् कुर्वन्ति वा पारुल् भगिनी कौशल्या भगिनी अनु भगिनी म्यूट् करोति वा पश्यतु इदानीं नौ वि विल् सी ओन्लि थर्ड् पर्सन् तत् संस्कृते प्रथमपुरुषः इति तत् मात्रं प्रथमं क्रियापदं पश्यामः अनन्तरं मध्यमपुरुषः उत्तमपुरुषः पश्यामः अस्तु तत्पूर्वं संस्कृते त्रीणि पुरुषाः सन्ति जानन्ति वा पर्सन्स् फस्ट् लैक् इन् इङ्ग्लिश् प्रथमपुरुषः फस्ट् पर्सन् ही शीट् आर् एनी नेमिङ्ग् वर्ड् तत् प्रथमपुरुषः इति मध्यमपुरुषः यु त्वं युवा यूयम् इति उत्तमपुरुषः अहं फस्ट् पर्सन् मैसेल्फ् अहम् इति इङ्ग्लिश् मध्ये फस्ट् पर्सन् इति आगच्छति अत्र उत्तमपुरुषः इति संस्कृते आगच्छति अहम् आवां वयम् इति आगच्छति अत्र मध्ये किं तिष्ठति तत् द्विवचनं सः तौ इदानीं पुरुषः पुरुषौ इति उक्तवन्तः खलु समानं सः तौ ते इति आगच्छति हि इति अत्र एकवचनं सः हि फार् हुस् फार् सः वयं तत्सर्वं प्रथम अभ्यासपुस्तके प्रारम्भस्तरे पठितवन्तः स्टार्टिङ्ग् आफ् दिस् बुक् अत्र मध्यमपुरुषः मध्ये किं सेकेण्ड् रो किं तिष्ठति रामः रामौ रामः इति आगच्छति तत्र रामौ इति आगच्छति खलु तत् उपयोगं कुर्मः चेत् क्रियापदं कर्तृपदम् एकवचनं बालकः क्रीडति इति आगच्छति एकवचनमध्ये अस्ति बालकाः इति आगच्छति चेत् क्रीडन्ति बहुवचनं जानीमः समानं द्विवचनम् उपयोगं कुर्मः चेत् कथं पुरुषौ इति अस्ति सो अत्र पठति पठतः पठन्ति इति आगच्छति खलु पुरुषौ गच्छतः पुरुषौ पठतः पुरुषौ क्रीडतः पुरुषौ उपविशतः इति यदा अत्र कर्तृ मध्ये सब्जेक्ट् मध्ये यदा द्विवचनम् आगच्छति क्रिया अपि द्विवचनं भवति अवगतं वा अन्य सुजया भगिनी भवती जानाति अन्य कोऽपि समस्या अस्ति चेत् कोऽपि वदतु
भगिनी
हा तदेव स्पश्यतु इदानीम् एकवचनम् अस्ति अहमेकवाक्यं वदामि बालकः क्रीडति इति अस्ति बहुवचने किम् आगच्छति
बालकाः क्रीडन्ति
बालकाः क्रीडन्ति द्विवचने किम् आगच्छति
बालकौ क्रीडतः
बालकौ क्रीडतः पठतु भगिनि अस्तु इदानीम् अहं किञ्चित् उदाहरणं वदामि एकवचनं द्विवचनं बहुवचनं वदामि पुरुषः वदति पर्सन् इस् टाकिङ्ग् टाक् पुरुषौ वदतः पुरुषाः वदन्ति एकवचनं द्विवचनं बहुवचनं परन्तु थर्ड् पर्सन् ओन्लि थर्ड् पर्सन् पुरुषः पुरुषौ पुरुषाः पुरुषः वदति पुरुषौ वदतः पुरुषाः वदन्ति अवगतं वा इट् मीन्स् टु पीपल् आर् टाकिङ्ग् एकः वदति जनद्वयं पुरुषौ टु पीपल् आर् टाकिङ्ग् मेनि पीपल् आर् टाकिङ्ग् पुरुषाः वदन्ति इति पुरुषः वदति पुरुषौ वदतः पुरुषाः वदन्ति इति तत् समानं स्त्रीलिङ्गमध्ये अपि तत्र किमपि क्रियापदस्य परिवर्तनं नास्ति अस्तु प्रथमं पुल्लिङ्गं मात्रं कुर्मः अहम् एकवाक्यं वदामि भवन्तः द्विवचनं बहुवचनं वदतु तत् स्पष्टं चेत् अग्रे गच्छामः रमा भगिनी वदतु वैद्यः आगच्छति द्विवचनं बहुवचनं
वैद्यः आगच्छति वैद्य वैद्यौ आगच्छतः वैद्याः आगच्छन्ति
सम्यक् अनु भगिनी बालकः उपविशति
बालकः उपविशति बालकौ उपविशतः बालकाः उपविशन्ति
सम्यक् विजया भगिनी युवकः धावति रन्निङ्ग् युवकः धावति
युवकः धावति युवकौ धावतः युवकाः धावन्ति
कौशल्या भगिनि क्रीडकः क्रीडकः क्रीडति
न अवगतं भगिनि
क्रीडकः क्रीडति एकवचनं द्विवचनं बहुवचनं वदतु
अस्तु क्रीडकः क्रीडति क्रीडकौ क्रीडतः क्रीडकाः क्रीडन्ति.
सम्यक्. पार्वभगिनि, गायकः गायति.
गायकः गायति. गायकौ गायतः. गायकाः गायन्ति.
आम्, सम्यक्. शोभा भगिनि, नायकः नायकः नृत्यति.
नायकः नृत्यति. नायकौ नृत्यतः. नायकाः नृत्यन्ति.
सम्यक्. लक्ष्मी भगिनी, शिक्षिकः पाठयति.
Please repeat that, ma'am.
शिक्षकः पाठयति.
शिक्षकः पाठयति. शिक्षकः शिक्षके
कौ कौ
शिक्षकौ पाठति.
न, पाठयति. पाठयतः.
पाठयतः. शिक्षकाः पाठयन्ति.
सम्यक्. शिक्षकः पाठयति. शिक्षकौ पाठयतः. शिक्षकाः पाठयन्ति. सुजया भगिनी, गणेशः तरति. तरति मीन्स्
गणेशः तरति. गणेशौ तरतः. गणेशाः तरन्ति.
उमा भगिनी प्रयत्नं करोति वा? अद्य अध्यापकः उपविशति.
अध्यापकः उपविशति. अध्यापकौ उपविशतः. अध्यापकाः उपविशन्ति.
सम्यक्. अवगतं वा इदानीम् एकवचनं द्विवचनं पुल्लिङ्गशब्देषु, द्विवचनं बहुवचनं?
सम्यक्.
इदानीम् अहं स्त्रीलिङ्गम् आकारान्त ईकारान्त नपुंसकलिङ्गं पृच्छामि. पारुल् भगिनी, गौरी गायति.
गौरी गायति. गौर्यो गायतः. गौर्यः गायन्ति.
सम्यक्. विजया भगिनी, नदी नदी प्रवहति.
नदी वाट् वर्ड् नदी
प्रवहति. प्रवहति प्रवाहं चलति.
नदी प्रवहति. नद्यौ प्रवहतः. नद्यः प्रवहन्ति.
प्रवहन्ति. सम्यक्. कौशल्या भगिनी, पार्वती ताडयति.
पार्वती ताडयति. पार्वत्यौ ताडयतः. पार्वत्यः ताडयन्ति.
सम्यक्. अत्र इतोपि एकं विषयं, क्रियापदं न परिवर्तनं भवति. देर् इस् डोण्ट् बि एनी चेञ्ज् इन् द क्रियापदं फर् पुल्लिङ्ग नपुंसकलिङ्ग किं कुत्र वर्तमानकाले. प्रसेण्ट् टेन्स् मध्ये भेदः न भवति पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति. क्रियापदं समानमेव भवति. अस्तु. अनु भगिनी, कदलीफलं खादति.
कदलीफलं खादति. कदली कदलीफले कदलीफले खादतः. कदलीफलानि खादन्ति.
रमा भगिनी,
आं भगिनि.
दूरदर्शनं पश्यति.
दूरदर्शनं पश्यति. दूरदर्शने पश्यतः. दूरदर्शनानि पश्यन्ति.
शोभा भगिनि. सखी आगच्छति.
सखी आगच्छति. सख्यौ आगच्छतः. सख्यः आगच्छन्ति.
सम्यक्. लक्ष्मी भगिनी. स्थालिका स्थालिका प्रक्षालयति.
स्थालिका प्रक्षालयति. स्थालिके प्रक्षालयतः. स्थालिकः प्रक्षालयन्ति.
स्थालिकाः
स्थालिकाः प्रक्षालयन्ति.
सुजया भगिनि. नर्तकी नृत्यति.
नर्तकी नृत्यति. नर्तक्यौ नृत्यतः. नर्तक्यः नृत्यन्ति.
उमा भगिनी. वनं गच्छति.
वने गच्छतः. वनानि गच्छन्ति.
अत्र अहं किमपि विभक्ति किमपि न उपयोगं कृतवती. मोस्ट्लि इट् लुक्स् लैक् दर् इस् नो मीनिङ्ग्. वनं गच्छति, वनानि गच्छति, कः गच्छति इति तत् अग्रे पश्यामः, अनन्तरं पश्यामः. इदानीं केवलं वाक्यरचना. स्पष्टं वा इदानीं? हा, तत् प्रथमपुरुषः, दट् इस् आङ्ग्लभाषया फस्ट् पर्सन्. अत्र द्विवचनं, बहुवचनम्, अनन्तरं क्रियापदस्य एकवचनं, बहुवचनं, एकवचनं, द्विवचनं, बहुवचनं. शक्यते चेत् एकं कार्यं करोतु भवन्तः. यदा इदानीं लिखति खलु, सर्वे लिखन्ति या एक उदाहरणं लिखित्वा प्रेषयतु वाट्सप् मध्ये. पुल्लिङ्ग, आकारान्तस्त्रीलिङ्ग, ईकारान्तस्त्रीलिङ्ग, नपुंसकलिङ्गं, सर्वं एकैक उदाहरणं, वन् वन् लैन्, फोर् लैन्स् टोटलि. तत्र एकवचनं, द्विवचनं, बहुवचनं, सो सर्वे ट्वेल्व्, द्वादशवाक्यानि लिखित्वा प्रेषयन्तु अभ्यासार्थम्. अस्तु वा? इदानीं मध्यमपुरुषः पश्यामः. फस्ट् पर्सन् अभवत् प्रथमपुरुषः. मध्यमपुरुषः पश्यामः. अत्र प्रथमपुरुषः इत्युक्ते सर्वं प्रथमपुरुषः एव. अहं किमपि नाम वदामि, बालकः, अङ्कनी, लेखनी, नदी, गौरी, वाट् एवर् इट् इस्, तत् पूर्वं सर्वं प्रथमपुरुषः इति. अत्र यदा अहं त्वम् इति, यु इति वदामि, तत् मध्यमपुरुषः, सेकेण्ड् पर्सन् इति. तत्र केवलं पदं त्रयमेव सन्ति, पदानि त्रयः एव सन्ति. त्वं, युवां, यूयं, यदा सः, तौ, ते अस्ति, तत्र त्वं, युवां, यूयम् इति अस्ति. त्वम् इति पदमस्ति खलु, तत्सर्वं युष्मत् शब्दः इति अत्र वयं विभक्तिमध्ये पठामः, अतः एव अहम् इदानीं वदामि. त्वं, युवां, यूयं, तत्र त्वम् इत्युक्ते एकः प्रथमः, यु. युवाम् इत्युक्ते यु बोत्, टु पर्सन्. यूयम् इत्युक्ते यु आल्, मेनि. उदाहरणार्थं त्वं छात्रा, भगिन्यौ द्वयम्. इदानीं कोऽपि शोभा भगिनी, लक्ष्मी भगिनी अस्ति. युवां छात्रौ इति, युवां छात्रौ, सर्वे सर्वे भगिन्यः, दश भगिन्यः सन्ति. अहं यूयं वाक्यं लिखतु, एकवचनं, बहुवचनं प्रेषयतु. यूयं कुर्वन्तु इति अहं यदा यु आल् इति वदामि, तत्र यूयम् इति अर्थम्, अहं न, नाट् इन्क्लूडिङ्ग् मी, अन्य यु आल्, यु यु बोत् यु आल् इति, त्वं युवां यूयम् आवश्यकं चेत् लिखन्तु, समयमावश्यकं चेत् वदतु, अहं पुनः वदामि, लिखन्तु एकवारं, के न जानन्ति एकवारं लिखन्तु, लिखति वा, आवश्यकं वा?
आं भगिनि, अस्तु.
वदामि वा?
आं भगिनि, आं भगिनि,
आं भगिनि. पश्यतु, इदानीं त्वं युवां यूयम् इति अस्ति, कदा वयम् उपयोगं कुर्मः चेत्, यदा डैरेक्ट् स्पीच् अहं साक्षात् वदामि, इदानीं भवन्तः अस्ति, भवन्तः कृते अहं वदामि चेत् तत्र मध्यमपुरुषः इति आगच्छति, सेकेण्ड् पर्सन् इति आगच्छति. तत्र अहम् इदानीं किम् उक्तवती, भवन्तः इति उक्तवती, त्वं युवां यूयम् एकम् अस्ति द्विवचनप्रयोगं, तत् विहाय अपार्ट् फ्रम् देट्, विहाय अपार्ट् फ्रम् देट् इतोपि एकम् अस्ति, यदा अहं त्वम् इति अहं न वदामि, परन्तु भवान् इति वदामि, तत् वयं दृष्टवन्तः अभ्यासपुस्तके, भवान् इति वदामः, भवान् भवन्तौ भवन्तः इति वदामि, तदपि मध्यमपुरुषः एव, तत्र यू इति अहं न वदामि, किञ्चित् रेस्पेक्ट्, भवान् इति वदामि, भवान् गच्छतु, भवान् आगच्छतु इति. यदा एवम् अहं वदामि तत्र तत्र अहं मम स्वतन्त्रमस्ति, तत्र अहं प्रथमपुरुषस्य वाक्यं भवान् गच्छति, भवान् सामान्यतया तत् किं प्रेरणा वयं पठितवन्तः खलु, गच्छतु पठतु इति तु प्रयोगं, तत् उपयोगं कर्तुं शक्नुमः. परन्तु यदा त्वम् इति आगच्छति, निश्चयेन अहं मध्यमपुरुषस्य क्रियापदम्, अहम् उक्तवती पठति पठतः पठन्ति, तत् अहम् एकवारम् एकं पिक्चर् प्रेषयामि, पठति पठतः पठन्ति इति अहम् उक्तवती खलु, कोऽपि विद्यालये पठितवन्तः स्मरति वा, अग्रे किम् आगच्छति, देर् आर् नैन् क्रियापदम्, अग्रे किम् आगच्छति, एनिवन् रिमेम्बर्? पठसि
पठतः
पठतः
पठत इति,
पठति
एकं
पठामि पठामः,
एकनिमिषम् अहं स्क्रीन् पठामि
पठावः पठामः,
इदानीम् अहं प्रथम मध्यमपुरुषः मात्रं वदामि, अहं किमपि स्क्रीन् शाट् अस्ति वा इति
पश्यामि, भवान् गच्छतु,
प्रायः सर्वे जानन्ति इति मन्ये, पठति पठतः पठन्ति, पठसि पठतः पठति पठत इति आगच्छति, तत् द्विवचनं, एकं स्क्रीन् शाट् शेर् पश्यतु, पट् इति धातुः दृश्यते वा, एबल् टु सी, पश्यतु इदानीं प्रथमपुरुषः किमस्ति, एकवचनं द्विवचनं बहुवचनं, पठति पठतः पठन्ति सर्वे जानन्ति, मध्यमपुरुषः इति अस्ति खलु, पठसि, पठतः, पठत, तदेव इदानीं वयं पश्यामः. पठसि, पठतः, पठति इति आगच्छति. इदानीम् अहं कथं तत् वाक्यम् उपयोगं करोमि, वाक्ये कथं त्वं पठसि, यु रीड्, त्वं पठसि, युवां पठतः, यूयं पठत इति आगच्छति. त्वं पठसि, युवां पठतः, यूयं पठत. तत्र किं बहु सुलभमार्गम् इत्युक्ते सर्वदा त्वं युवां त्वं युवां यूयम् एव भवति, अन्यत् किमपि न भवति. फार् एक्साम्पल् यदा प्रथमपुरुषे किं किं वदामः, बालिका, अङ्कनी, लेखनी सर्वं वदामः खलु, तदा अत्र नास्ति. मध्यमपुरुषे सर्वदा त्वं युवां यूयम् एव, यु यदा त्वम् इति उपयोगं कुर्मः साक्षात् पठसि आगच्छति. अन्यं किमपि पुत्रः, सखी इति वदामः तदा पठति एव आगच्छति, अथवा तु प्रयोगः, भवान् पठतु, बालकः अत्र आगच्छतु इति तु प्रयोगः आगच्छति. यदा त्वम् इति वदामः तदा मात्रं पठसि, पठतः आगच्छति. अवगतं वा?
अवगतम्.
अस्तु, इदानीं किञ्चित् अभ्यासं कुर्मः. वाक्यं पठति इति वदामि, पट् इति सर्वं धातुः, अग्रे पश्यतु, अधः गच्छति, गच्छतः, गच्छन्ति, गच्छसि, गच्छतः, गच्छत. यदा गच्छामः अग्रे किञ्चित् कण्ठस्थीकरणं कुर्वन्तु, मेमरैस् करोतु. लिखति, लिखतः, लिखन्ति, लिखसि, लिखतः, लिखत इति अस्ति. एतत् केवलं फार्मुला, एकं जानाति चेत् सर्वं जानन्ति, प्रायः सर्वे जानन्ति. इदानीं वाक्यं वदति वा? एक गच्छति इति पदं वदामि, भवन्तः त्वं गच्छसि, युवां गच्छतः, यूयं गच्छत इति वदति वा? यूयं नृत्यति,
नृत्यति, युवां नृत्यतौ, यूयं नृत्यतः. हलो,
हलो, गीता भगिनी इज़ नॉट देयर. संगीता भगिनी,
शी इज़ नॉट देयर, शी इज़ नॉट देयर.
नाउ एक्सक्यूज मी, कैन एनी वन ऑफ यू हेल्प मी? When is the patatu used and when is the patati used?
Patatu for prerna or agna. Patatu okay. for prerna or agna. Okay. And then swam means we both. If two people are talking with each other, then swam will come.
Oh, okay, okay. Patatu is for agna and for requesting somebody to do something.
Like you are a, request and agna both.
You are speaking, no?
Yeah.
You are speaking, that's why you are tom vadasi.
Okay.
You speak.
You and okay. Sujiya Bhagini are speaking then? You am vadatha.
Vadatha.
Okay. If you all are speaking, then vadatha.
Vadatha, yeah.
You am vadatha.
For Bhavan and For Bhavan and Bhavati, only this Gacchatu, Patatu, okay. Pashyatu has to be used, not see Tahatha.
Oh, oh, okay, okay. Hmm. Yeah, okay, got it. Yeah. Bhavati, you have to use Patati, Patataha. But if you are requesting them or ordering them, then you say Patatu.
Patatu.
If I tell you, you eat, then Patatu. But if I say... Bhavati Pathati, if I say you are reading
I don't tell you to read. I say you are reading, then I say pathati.
Okay.
Yeah.
Yeah. Okay, okay. Yeah, I got it. Thank you. Thank you.
Hello.
If we
yeah. know the name of the person, no, then Rama pathati. Otherwise Tom pathasi.
Okay.
Gachatu pashatu can't be used for Tvam. Tvam yuva. Only for Bhavan Bhavati. Upavishasi. Tvam upavishasi. Tvam upavishasi.
Yuvam upavishatah.
Okay.
And yuvam speak, you of yuvam. Make the sentence
yuvam,
of yuvam.
Yuvam, yuvam upavishatah.
Upavishatah. Kridati. Make the sentence of kridati.
Balakaha Yeah, go ahead.
Tvam kridasi. Bhavan kridatu. Yuvam kridataha. Yuyam kridata.
Now likhati. So Baba Bini, you speak now.
Somebody else try.
Likhati.
Okay, let me try. Tvam likasi, yuvam likataha, yuyam likatha.
Very good.
Tishtatu. Somebody. Tishtatu.
Who will speak now?
Anybody can try. Tishtatu.
Shall I try? Vijay?
Yeah, sure.
Yes.
Yes. Oh, she has come. She has come, I think.
Yuvam tishtatah. Yuyam tishtatah.
Yes. Tvam tishtasi.
Yeah, please.
How about Bhavan? Bhavan tishtatu, is it?
Bhavati tishtatu. Bhavati tishtatu.
Gachatu.
How about Bhavan?
I think it is...
Tishtantu. Tishtantu, gachantu.
Plural form. Bhavantau. Bhavantau, plural form.
Okay. Gachatu, gachataha. I don't know.
Hariom.
Fatu. Hariom.
Samhita. Continue, karat. I had some issues, I locked out again.
For Gachato, what is the Dhitya Vibhakti? Gachato?
No. Why am I then in Tatra? Kimapi Vibhakti, Kimapi Napashyamaha. Vibhakti Prayokameva Nasti Etata. Then I am Kriyapadam Pashyamaha.
Astu.
Bhavan ki asti kriya padvyapti pashito kartru padam subject kriya padam action verb idanim mayam कर्तृ प्लस् क्रिया पश्यामः, विभक्ति अनन्तरं गच्छामः, तदैव अहम् उक्तवती. इदानीं वयं विभक्ति एतस्मिन् सप्ताहे वयं केवलम् एतत् तस्य अभ्यासं कृत्वा अग्रे विभक्ति गच्छामः. एतत् न जानीमः चेत् विभक्ति कष्टं भवति. इदानीं मध्यमपुरुषः गच्छसि, गच्छसि अभ्यासं कृतवन्तः वा भवता?
आं भगिनि, वयं कृतवन्तः.
इदानीं तत् स्पष्टं वा? गच्छसि, गच्छतः, गच्छन्तः,
गच्छथ,
त्वं, त्वं गच्छसि, युवां गच्छतः, यूयं गच्छथ अभवत्
भगिनि.
अग्रे गच्छामः वा?
आं भगिनि, आम्.
इदानीं स्क्रीन् पश्यतु, स्क्रीन् दृश्यते वा? दर्शनं करोमि, पश्यतु. इदानीं मध्यमपुरुषः मध्ये समस्या एव नास्ति, केवलं त्वं, युवां, यूयं पदम् आगच्छति चेत् मात्रं गच्छसि, गच्छतः आगच्छति. अन्यपदम् आगच्छति चेत् साक्षात् तत् गच्छति, गच्छतः प्रथमपुरुषः एव आगच्छति. अनन्तरम् उत्तमपुरुषः वयं सर्वे सम्यक् जानीमः, सम्भाषणे वयं सर्वदा अहम्, अहम्, अहम् इति उपयोगं कुर्मः. अहं, युवां, यूयं, क्षम्यताम्, अहम्, आवां, वयम्, अहम्, आवां, वयम्, अहम् एकवचनम्, अहम् एकवचनम्, आवां द्विवचनं, वयं बहुवचनम्. तत्र यदा अहम् इति पदम् आगच्छति तत् सर्वदा मी एव आगच्छति. अहम् इति प्रारम्भं करोति चेत् मी इति एव आगच्छति. उदाहरणार्थम् अहं मम कुटुम्बेन सह, कुटुम्बेन सह मन्दिरं गच्छामि एव. तत्र अहम्, अहम् इति वदति चेत् गच्छा बहुवचनम् इति कुटुम्बं बहुवचनम् इति कारणात् मह इति न आगच्छति. किञ्चित् प्रारम्भम् अहम् इति आगच्छति चेत् अहं मम कुटुम्बेन सह गच्छामि एव. अस्तु वा? गच्छामि पदम्. वयं द्विजनाः, टु पीपुल् आर् गोयिङ्ग् सम्वेर्, वयं गच्छामः, आवां गच्छावः, आवां मीटु, आवां गच्छावः, आवां कुर्वः, कार्यं कुर्वः, आवां पठावः, आवाम् इति आगच्छति, पठावः, कुर्वः, उपविशावः इति आगच्छति. वयं, वि आल्, वयं गच्छामः, वयं पठामः, वयं पश्यामः, वयं खादामः, वयं पिबामः इति आगच्छति. अहम्, आवां, वयम्, अत्रापि लिङ्गभेदं किमपि नास्ति. अहम् इति पदम् आगच्छति चेत् मी आगच्छति, आवाम् इति आगच्छति चेत् वः. केवलम् अहम्, आवां, वयं मध्ये मात्रम् आगच्छति. स्पष्टं वा? उदाहरणं पश्यामः वा, अभ्यासं कुर्मः
वा?
अनुभगिनी वदति वा? धावति, पूर्णवाक्यम्, अहं धावामि,
अहम्, अहं धावामि, आवां धावा, धावावः, वयं धावामः.
रमा भगिनी, पिबति,
अहं पिबामि, आवां पिबावः, वयं पिबामः.
विजया भगिनी,
क्षमस्व भगिनी,
दर्शयति,
दर्शयति, अहं दर्शयामि, आवां दर्शयामः,
आवह
दर्शयावः वयं दर्शयामः
पारल भगिनि
चिन्तयति अहं चिन्तयामि आवां चिन्तयावः वयं चिन्तयामः
प्रक्षालयति
अहं प्रक्षालयामि आवां प्रक्षालया अवः वयं प्रक्षालयामः
लक्ष्मी भगिनी उत्तिष्ठति
अहम् उत्तिष्ठामि आवाम् उत्तिष्ठामवः वयम् उत्तिष्ठावः वयम् उत्तिष्ठामः
पृच्छति
अहं पृच्छामि आवां पृच्छावः वयं पृच्छामः
उमा भगिनि प्रेषयति
हलो
प्रेषयति
प्रेषयति प्रेषयति प्रेषयतः प्रेषयन्ति इस् इट् करेक्ट्
वा न अहम् आवां वयम् उत्तमपुरुषे
ओके अहं प्रेषयति अहं प्रेषयति आवाम्
अहं प्रेषयामि
अहं प्रेषयामि आवां प्रेषयामः
प्रेषयावः
ओके अहं प्रेषयामि आवां प्रेषयत नाट् गेटिङ्ग् इट् वेरि वयं प्रेषयामः
पठतु स्वीकरोतु अहं अहं पठामि
गच्छामि गच्छावः गच्छामः लेट् दट् मन् ओके अहं प्रेषयामि आवां प्रेषयावः वयं प्रेषयामः
अवगतं वा क्लियर्लि क्रियापदं वयं क्रियापदस्य अभ्यासमेव इदानीं कुर्मः कर्तृ प्लस् क्रिया कुर्मः विभक्ति न पश्यामः तत् केवलम् अभ्यासार्थम् अहं वदामि द्विवचनस्य अभ्यासार्थम् अनन्तरं लकारस्य अभ्यासार्थम् अत्र इतोपि एकम् अहं वक्तुम् इच्छामि यदा वयं विभक्तिपर्यन्तं गच्छामः किञ्चित् कालः अपि आवश्यकं कालः बेसिक् कालः किं किं कालः अस्ति इति कोऽपि वदति वा किं किं लकारः लकारः मीन्स् टेन्सर् किं किमस्ति इति कोऽपि वदति वा एकैकं वदतु
कालः वर्तमानकालः
भविष्यत्कालः भविष्यत्कालः तत् वयम् अभ्यासपुस्तके पठितवन्तः खलु तद् विहाय अन्य किमस्ति इति पश्यामः चेत् संस्कृते सर्वं लकारः इति भवति लकारः लकारः इत्युक्ते कालः एव दशलकाराः सन्ति टोट्लि टेन् लकाराः सन्ति दशलकाराः सन्ति अत्र वयं सामान्यतः षड् लकाराः टेन्स् वयम् उपयोगं कुर्मः सामान्य भाषया अन्यत् वेदे आगच्छति काव्येषु आगच्छति परन्तु सामान्यजनानां लौकिकसंस्कृते षड् लकाराः आगच्छन्ति तत् किम् इति अहं नाम वदामि, अनन्तरं गत्वा पश्यतु. लट् लकारः, लोट् लकारः. अत्र लट् लकारः इत्युक्ते प्रसेण्टेन्से लट् लकारः. इदानीं वयं पठति पठतः इति पश्यामः खलु, तत् लट् लकारः. अनन्तरं लोट् लकारः इति एकं, तत् वयं पठितवन्तः, गच्छतु, पठतु, उपविशन्तु इति अहमपि सर्वदा प्रयोगं वद भगिनी वदतु इति उपयोगं करोमि. तत् लोट् लकारः इति, तत्र लोट् लकारः मध्ये सामान्यतया इट् लुक्स् लैक् अ सिम्पल् प्रसेण्टेन्स्. सम्टैम्स् श्वः आगच्छतु अपि इट् इस् आल्सो कन्सिडर्ड् एस् अ लोट् इति. तत्र कालम् इति ओन्ली इन् द प्रसेण्टेन्स्, टुमारो आगमिष्यतु इति अहं न वदामि, श्वः अपि आगच्छतु. तत् रेक्वेस्ट् आर् आर्डर् तत् सर्वदा एवमेव तिष्ठति, तत् लोट् लकारः इति. अनन्तरं लङ् लकारः, लङ् लकारः भूतकालप्रयोगं वयं पठितवन्तः खलु, अभवत्, अपठत् इति किञ्चित् वयं लङ् लकारः अधिकं न पठितवन्तः, किञ्चित् दृष्टवन्तः. लङ् लकारः. अनन्तरं लृट् लकारः, लृट्, लृट् इत्युक्ते भविष्यत्कालं, पठिष्यति, गमिष्यति, खादिष्यति इति, इष् इष् इति आगच्छति खलु. अहम् एकं पत्रं प्रेषितवती, ऐ सेण्ट् आन् पेपर्, डु यु रिमेम्बर्?
आं भगिनि,
अहं पूर्वमेकं पत्रं प्रेषितवती खलु.
आं भगिनि,
हा, तत् पत्रे अस्ति सर्वं, पठिष्यतु, पठिष्यति, गमिष्यति, उपविशिष्यति इति, उपवेशिष्यति इति, तत्सर्वम् अत्र सन्ति. एकवारम् अहं, तत् लृट् लकारः इति भवति. अनन्तरं विधिलिङ्ग् इति लकारः अस्ति, विधिलिङ्ग् लकारे प्राबबिलिटि के, अद्य सायं वृष्टिः भवेत्, इट् मे रैन् इति वयं पठितवन्तः. एतत् सर्वं सामान्यलकारविषयं. एवं सर्च् करोतु संस्कृतलकारः इति, सर्वम् आगच्छति लकारः. तत् लकारम् एकवारं, तत् लकारस्य ज्ञानम् आवश्यकम्, अट्लीस्ट् मिनिमम् लट् लकारः, वर्तमानकालः, अनन्तरं लोट् लकारः, अनन्तरं लङ् लकारः, अनन्तरं
लृट्
लकारः. एतत् फोर् टोट्लि, चतुर्लकारः, लकारस्य बेसिक् अण्डर्स्टाण्डिङ्ग् आवश्यकम्. किञ्चित् नोट् करोतु, यदा वयं नौ वि आर् नाट् इन् द फस्ट् स्टेप्, वि आर् गोयिङ्ग् अप्, सो वि विल् हाव् नो मेनि न्यू थिङ्ग्स् एण्ड् वि विल् हाव् मोर् होम् वर्क् आल्सो. अस्तु वा? तत् सर्वे पठितवन्तः एव विद्यालयेषु, सर्वे सर्वं पठितवन्तः, परन्तु न अवगतवन्तः, वि डिण्ट् अण्डर्स्टाण्ड्. इदानीं किञ्चित् अवगमनम् अपि भवेत्. अस्तु वा? एतत् लकारः एकवारं दृष्ट्वा आगच्छति. लट्, लोट्, लङ्, अनन्तरं लृट्. अस्तु वा? सो अद्यतनविषयं वयं किं पठितवन्तः तत् स्मरतु, एकवारं रिविशन् कुर्मः. एकवचनं, प्रथमपुरुषः एकवचनं, द्विवचनं बहुवचनं, पुरुषः, पुरुषौ, पुरुषाः, महिला, महिले, महिलाः, पुस्तकं, पुस्तके, पुस्तकानि, तत्सर्वं प्रथमपुरुषः, थर्ड् पर्सन्. अनन्तरं मध्यमपुरुषः, त्वं, युवा, यूयम्. अहं किं वदामि, तत्सर्वं सब्जेक्ट्, कर्ता. सो अत्र वयं पुरुषः, पुरुषौ, पुरुषाः, महिला, महिले, महिलाः, वनं, वने, वनानि, अनन्तरं भगिनी, भगिन्यौ, भगिन्यः इति पठितवन्तः. तत्सर्वं प्रथमपुरुषविषये. मध्यमपुरुषे त्वं, युवा, यूयम्. उत्तमपुरुषे अहम्, आवां, वयम्. एतत् सर्वं कर्तृपदं, सब्जेक्ट्. एनी डौट्स्?
नास्ति भगिनि.
स्पष्टं वा?
स्पष्टं
अन्य कोऽपि जया भगिनी विहाय अन्य सन्देहमस्ति वा किमपि अस्ति चेत् अद्यैव कृत्वा अग्रे गच्छामः एतत् वेरि बेसिक्
भगिनी if you want to ask you all are eating sweets then what will be the sentence yum madurani khadatha yum madurani khadatha is it okay
correct
okay thank you dhanyawad
aswa tatra etat api samyak bhavati भवन्तः सर्वे मधुराणि खादन्तु अपि सम्यक् देट् इस् लैक् अ मोर् आफ् अ आर्डर् सर्वे कुर्वन्तु यु डू आल् आफ् यु डू अत्र यदा अहं यूयं मधुराणि खादन्ति इट् इस् लैक् आक्षन् सम्थिङ्ग् इस् हेपनिङ्ग् ऐ जस्ट् नरेट् यूयं खादत इति अहं वदामि यदा अहं करोतु इति ऐ वाण्ट् टु गिव् द आर्डर् देन् भवन्तः सर्वे खादन्तु इति प्रयोगः तत् avagacchati va vedah kah iti do you understand the difference between both tu prayogam and
ti bhagini
bhagini yada ek karyam prachalati bhavantah control nasti ekam kimapi prachalati tat bhavantah vadati chet madhyam purushah patati iti agacchati tvam patati you are already reading aham vadami tvam patati iti parantu aham mama putrim vadami इदानीं पठतु इति अहं वदामि तत् आर्डर् प्रेरण ऐ टेल् हर् टु रीड् भवती पठतु भवती गच्छतु भवती करोतु इति मम आज्ञा अस्ति अत्र एकं कार्यं प्रचलति त्वं करोषि इति अहं वदामि तत् पूर्वमेव प्रचलति तत्र मध्यमपुरुषस्य वचनं सम्यक् अवगतं वा सम्यक् इदानीं किमर्थम् अहं बहु सुलभेन पृच्छामि गच्छामि अनन्तरम् अहं पृच्छामि इत्युक्ते एतत् आधारेण एव वयं विभक्ति पठामः पठिष्यामः अतः एतस्य अवगमनं बहु मुख्यम् सो अगेन् वेन् वि गेट् इन्ट्रोड्यूस् टु सो मेनि न्यू ग्रामर् it might confuse so let's clear this first kaheyam punaha punaha pruchyam astu idan kartru padam samekva kriya padam pashyamah kriya padam pashyamah cheta satra prathama purushah patati patatah patanti patasi patatah patatha iti agacchati madhyama purushe patatah first ta small ta patatah second ta अनन्तरं पटावः इति द्विवचने तत् एव नूतनम् एकवचनं बहुवचनं वयं पठितवन्तः अभ्यासपुस्तके द्विवचनम् इदानीं नूतनतया वयं पठामः तत्सर्वं क्रियापदं पश्यतु यदा कर्तृपदं मध्ये करोति पुरुषः पुरुषौ पुरुषाः इति आगच्छति क्रियापदं करोति पठतः पठति पठतः पठन्ति इति आगच्छति सो द्वयमपि भिन्नं डोण्ट् मिक्स् इट् मिश्रणं न कुर्वन्तु अतः अभ्यासं कुर्वन्तु अस्तु वा किञ्चित् होम्वर्क् कृत्वा मां प्रेषयतु इफ् यु आर् होवर् इस् नाट् कम्फर्टबल् लिस्निङ्ग् आर् डूयिङ्ग् फर् द फस्ट् टैम् आर् आफ्टर् सो लाङ्ग् कृपया मां गृहपाठं प्रेषयतु अहं करेक्षन् करोमि अस्तु वा तत् सन्देहमस्ति चेदपि गणे पृच्छतु इफ् सम् अदर् हूस् हेविङ्ग् गुड् प्राक्टिस् आन् दिस् दे केन् हेल्प् पश्यतु इदानीं अग्रिमकक्षार्थम् अहं पूर्वमेव किञ्चित् उक्तवती इदानीं पुनः वदामि रामशब्दं सीताशब्दम् अथवा रमा वा सीता वा किमपि स्त्रीलिङ्गशब्दं
रामशब्दं केवलं रामशब्दं रमाशब्दं किञ्चित् कण्ठस्थीकरणं कृत्वा आगच्छतु. इफ् यु पुट् रमा राम इति शब्दम् इति वदति
चेत्
इति स्थापयति चेत् आगच्छति नेट् मध्ये आगच्छति अथवा पुस्तकमस्ति चेत् तदपि पश्यतु. रमाशब्दं रामशब्दं तत् किञ्चित् मेमरैस् करोतु. एतत् लट् लकारः प्रसेण्टेन्स् अपि मेमरैस् करोतु. इन् एव्रि वीक् वि विल् सि. इदानीं वयं प्रथमा विभक्ति पठितवन्तः खलु, पुरुषः पुरुषौ पुरुषः प्रथमा विभक्ति, तत् वयम् अद्य पठितवन्तः. समानं धातुः पठति पठतः पठन्ति इति धातुः पठितम्. आगामिसप्ताहे किञ्चित् पास्टेन्स् वा अथवा लोट् लकारः वा इतोपि एकः लकारः लोट् लकारः पश्यामि. अनन्तरं द्वितीयाविभक्ति पश्यामि. अस्तु वा अनु भगिनी वदतु किं सन्देहम्.
भगिनि लैक् भवत्या एकवचनम् अस्ति, भवत्या लिखतु सारि भवती लिखतु
भवत्याः
लिखतः
भवत्या
लिखन्ति
भवत्यः
लिखन्ति.
पश्यतु यदा दट्स् वै ऐ आल्वेस् करेक्ट् द लास्ट् प्रोनौन्सियेशन्. तत्र एव विभक्ति तिष्ठति. यदा भवत्या इति वदति तत् तृतीया विभक्ति रमया इति आगच्छति, तत् तृतीया विभक्ति. अत्र भवती अस्ति, भवती भवत्यौ भवत्यः अस्ति, एकवचनं द्विवचनं बहुवचनं. यदा भवत्याः इति वदति तत् षष्ठीविभक्ति, पञ्चमी षष्ठीविभक्ति. भवत्याः नाम किम् इति पृच्छामः खलु, तत् षष्ठीविभक्ति. भवत्या तृतीया विभक्ति. सो देर् इस् इफ् यु इफ् यु प्रनौन्स् वन् वर्ड् एक्स्ट्रा आर् लेस् देन् इट् गिव्स् अ डिफ्रेण्ट् मीनिङ्ग्. यदि भवत्याः इति पृच्छति षष्ठीविभक्ति पोसिशन्, भवत्या इति वदति तृतीया विभक्ति इन्स्ट्रुमेण्टल् केस्, भवत्यः इति वदति तत् बहुवचनम्. किमपि वदति भवती लिखतु, लिखतु आगच्छति अत्र, भवती भवत्यौ लिखतां, भवत्यः लिखन्तु इति आगच्छति. लोट् लकारः आगच्छति. भवती सामान्यतया यदा भवती मीन्स् अगेन् यु इति अर्थं, तत्र वयं सामान्यतया वदामः त्वं गच्छसि इति, भवती गच्छसि इति वदामः, अथवा भवती गच्छतु इति वदामः. भवती गच्छति इति अपि सम्यक्, भवती इदानीं गच्छति, भवती वदति इति अपि सम्यक्. बट् पठतु वदतु विल् गिव् यु गुड् एक्चुवल् मीनिङ्ग्. अस्तु वा, भवती भवत्यौ भवत्यः. सेम् वे फर् पुल्लिङ्गशब्दः भवान् भवन्तौ भवन्तः. भवान् भवान् वदतु इति अहं वदामि चेत् भवान् भवन्तौ भवन्तः भवति. अस्तु पश्यामः आगामिसप्ताहे. सर्वे भवन्तु सुखिनः, वदति वा? अहं वदामि, सर्वे अनुवदन्तु, परन्तु अहं म्यूट् मध्ये स्थापयामि. पत्राणि पश्यन्तु, कश्चित् दुःखवाप्भवेत्. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः भगिनि.
धन्यवादः
पुनर्मिलामः.
धन्यवादः.